इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। सर्वकारेण उक्तं यत् देशस्य सर्वाणि तैलशोधागाराणि उच्चक्षमतया कार्यं कुर्वन्ति, यत्र पर्याप्तानि अशोधितानि तैलानि सन्ति। पेट्रोलियम प्राकृतिक गैस मंत्रालयः अवदत् यत् पेट्रोल डीजल इत्येतयोः पर्याप्तानि भण्डाराणि अपि रक्षितानि सन्ति। विश्वस्य सर्वाधिक लोकप्रियः नेता प्रधानमन्त्री नरेन्द्र मोदी एकस्मिन् नूतने वैश्विक सर्वेक्षणे पुनः एकवारं विश्वस्य सर्वाधिक लोकप्रिय नेतृत्वेन निर्वाचितः। विदेश मंत्री डॉक्टर एस जयशंकरः अद्य फ्रांस देशस्य स्वस्य समकक्षीयेन जीन नोएल बैरोट इत्यनेन सह द्वैपाक्षिकं वार्तालापम् अकरोत्। अपि च अद्य अशेषे हि देशे सहर्षं श्रसद्धं च रामनवमी समाचर्यमाणा अस्ति। अथ वार्ताः विस्तरेण। सर्वकारेण उक्तं यत् देशस्य सर्वाणि तैलशोधागाराणि उच्चक्षमतया कार्यं कुर्वन्ति, यत्र पर्याप्तानि अशोधितानि तैलानि सन्ति। पेट्रोलियम प्राकृतिक गैस मन्त्रालयः अवदत् यत् पेट्रोल डीजल इत्येतयोः पर्याप्तानि भण्डाराणि अपि रक्षितानि सन्ति, यत्र सर्वाणि विक्रयणस्थानानि सम्पूर्णे देशे सामान्यरूपेण प्रवर्तन्ते। सर्वेषु पेट्रोल पम्प्स इत्यत्र च पर्याप्तानि भण्डाराणि उपलभ्यन्ते। हॉर्मुज जल संधेः पिधाने मंत्रालयः अवदत् यत् सम्पूर्णे देशे पेट्रोलियम उत्पादानां एलपीजी इत्यस्य च अविराम पूर्तिं निर्वोढुं सर्वकारः अनेकानुपायान् अकरोत्। अग्रे उक्तं यत् सम्पूर्णे देशे आन्तरिक एलपीजी सिलेंडर इत्यस्य वितरणं सामान्यमेव अस्ति, एलपीजी वितरणक्षेत्रेषु शुष्कता न दृश्यते। विश्वस्य सर्वाधिक लोकप्रियः नेता प्रधानमन्त्री नरेन्द्र मोदी अमेरिका देशस्य दत्तांश विश्लेषण संस्थया मॉर्निंग्स कंसल्ट इत्यनया नूतने वैश्विक सर्वेक्षणे पुनः एकवारं विश्वस्य सर्वाधिक लोकप्रिय नेतृत्वेन निर्वाचितः। मार्च मासस्य द्विदिनांकतः अष्ट दिनांक पर्यन्तं संचालिते अस्मिन् सर्वेक्षणे श्रीमोदी 68% अनुमोदन मानांकं प्राप्तवान्। स्विट्जरलैंड देशस्य राष्ट्रपतिः गाय पार्मेलिन तथा दक्षिण कोरिया देशस्य राष्ट्रपति ली जे म्यूंग च 62% अंकैः सह द्वितीय स्थाने स्तः। चेक गणराज्यस्य अर्जेंटीना देशस्य च नेतारौ क्रमशः 57% अथ 65% अंकान् प्राप्तवन्तौ। अस्यां सूच्याम् अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः केवलं 31% अंकान् लब्ध्वा प्रथम दश शीर्ष स्थानेषु स्थानं न अवाप्तवान्। विदेश मंत्री डॉक्टर एस जयशंकरः अद्य फ्रांस देशस्य अब्बे डेस वोस्क डी सेरने इत्यत्र स्वस्य फ्रांस देशीयेन समकक्षीयेन जीन नोएल बैरोट इत्यनेन सह द्वैपाक्षिकं वार्तालापम् अकरोत्। डॉक्टर एस जयशंकरः G7 विदेश मंत्रिमंडलस्य सदस्य देशैः सह उपवेशने भागग्रहणाय द्विदिवसीय यात्रायां फ्रांस देशे अस्ति। भारतीय रेल मार्गेण स्वस्य संचार आधारभूत संरचनायाः उन्नयनार्थं तथा कवच इति स्वदेशी स्वचालित सुरक्षातन्त्रस्य विस्ताराय 200+ crore rupees मूल्यस्य परियोजना स्वीकृता। रेल मंत्रालयस्य अनुसारं एतासां योजनानां मुख्यं लक्ष्यं तावत् उन्नत फाइबर संचार प्रणाल्याः माध्यमेन रेलजालस्य संचालन क्षमतायाः सुरक्षायाः च वर्धनमस्ति। मन्त्रालयेन मध्य रेलवे इत्यस्य 5 अपि मण्डलेषु सुदृढं ड्यूल फाइबर संचार जालं स्थापयितुं 600+ crore rupees व्ययेन परियोजना अनुमोदिता। सुरक्षा उपायेषु कवच 4.0 इति उन्नत तन्त्रं तमिलनाडु केरलं कर्णाटक राज्येषु 48+500 km परिमितेषु अतिव्यस्त मार्गेषु 300+ crore rupees व्ययेन स्थापयिष्यन्ते। तन्त्रमिदं संकटकाले स्वयमेव ब्रेक इति अवरोधं प्रयुज्य रेलयानानां परस्परं संघट्टं रोद्धुं निर्मितमस्ति, येन व्यस्तमार्गेषु यात्रा अधिका सुरक्षिता भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय मार्ग परिवहन राजमार्ग मन्त्री नितिन गडकरी वर्यः अद्य अवदत् यत् सर्वकारेण सम्पूर्णे देशे दुर्घटना प्रवण ब्लैक स्पॉट इत्येतेषाम् अभिज्ञानं संशोधनं च कृत्वा मार्ग सुरक्षां वर्धयितुं विस्तृतानि उपायानि प्रारब्धानि सन्ति इति।
रोड इंजीनियरिंग में काफी कमियां थी, हम लोग उसको पूरी तरह सुधार कर रहे हैं और जो अनेक एक्सीडेंट होते हैं उसको हम ब्लैक स्पॉट कहते हैं और हमने वो आइडेंटिफाई किए और अभी हमने 40,000 करोड़ रुपए इसके ऊपर खर्चा किए हैं। जो लैंडस्लाइड्स होती है जैसे हिमालयन टेरेन में उत्तराखंड, हिमाचल या कश्मीर में, वहां हमने 350 ऐसे स्पॉट आइडेंटिफाई किए, उसमें से 280 स्पॉट को हमने वर्ल्ड में टेक्नोलॉजी का सहयोग लिया, वो भी इम्प्रूव किया।
नवदिल्ल्यां 26,000 सड़क सुरक्षा अभियाने अभिनेत्रा आमिर खानेन सह वार्तालापं कुर्वन् मन्त्री अवदत् यत् उन्नतेः मार्ग विन्यासस्य सुरक्षायाः च कृते 40,000 कोटिरूप्यकाणि व्ययः कृतः अस्ति। अपि च प्रायः अभिधीयमानेषु 350 कृष्णस्थानेषु प्रायः 80,200 स्थानानां पूर्वमेव संशोधनम् अभवत्। श्रीगडकरीवर्यः अवदत् यत् देशस्य वाहन उद्योगः सद्य एव वर्षेषु महति वृद्धिम् अवाप्नोत् तथा च तृतीयः बृहत्तमः वैश्विकरूपेण उद्भूतोऽस्ति। सः अवदत् यत् नीतिपरिष्कारैः मूलसौकर्याभिवृद्ध्या च समर्थितम् अग्रिमेषु 5 वर्षेषु भारतम् अस्मिन् क्षेत्रे शीर्षस्थाने नयितुं दूरदृष्ट्या सह प्रशासनं कार्यं कुर्वन्नस्ति। सितंबर मासे संजातस्य जेनजी आन्दोलनस्य कारणानि अन्वेष्टुं गठितस्य कार्की अन्वेषणायोगस्य प्रतिवेदनेन स्पष्टं जातं यत् देशस्य मुख्या गुप्तचर संस्था राष्ट्रियान्वेषणविभागः आन्दोलनकाले पूर्णतया विफलः अभवत्। सितंबर मासस्य 8 दिनांके काठमाण्डुनगरे विभागस्य त्रुटिपूर्णानुमानेन केवलं 3,000-4,000 पर्यन्तं प्रदर्शकाः एकत्रिताः भविष्यन्ति। अन्याः सुरक्षा संस्थाः स्वकीयाः योजनाः निर्मितवत्यः। काठमाण्डुनगरस्य मुख्यजनपदाधिकारिणा आरक्षकाधिकारिभिः सह आयोगस्य समक्षं दत्तैः वक्तव्यैः ज्ञायते यत् विभागस्य असत्यसूचनायाः कारणेनैव सुरक्षासञ्जासु शिथिलता अभवत्। प्रतिवेदने निष्कर्षः प्रदत्तः यत् वास्तविकसङ्ख्यायाः विभागस्य अनुमानस्य च मध्ये एतावान् महान् भेदः विभागस्य प्रमुखस्य हुतराज थापा इत्यस्य वास्तविक्यः दुर्बलतां प्रकटयति। यद्यपि थापा महोदयः सूचनासंग्रहस्य आन्तरिकतन्त्रस्य सीमां तथा च साइबरतन्त्रस्य अभावं दोषं मत्वा स्वकीयम् उत्तरदायित्वं निवारयितुं प्रयत्नं कृतवान्। पुदुचेरी केन्द्रशासित प्रदेशस्य मुख्य निर्वाचनाधिकारी पीएस जवाहरः अवदत् यत् मतदातृणां कृते धनस्य निःशुल्कदानस्य च वितरणं निवारयितुं केन्द्रशासित प्रदेशस्य सर्वेषु निर्वाचनक्षेत्रेषु ड्रोणयन्त्रेण निरीक्षणं नियोजयिष्यते। सः अवदत् यत् देशे एतत् प्रथमम् अवसरमस्ति यत् राज्यस्य अथवा केन्द्रशासित प्रदेशस्य सर्वेषु निर्वाचनक्षेत्रेषु एतादृशं ड्रोण निरीक्षणं कार्यान्वितमस्ति। 15 देशानां निर्वाचन प्रबन्धन संस्थानां प्रतिनिधयः निर्वाचन प्रक्रियां निरीक्षणार्थं पुदुचेरी नगरम् आगमिष्यन्ति इत्यपि सः सूचितवान्। सः अवदत् यत् उड्डयन दलानां संख्या वर्धिता भविष्यति। जिनोवायां संयुक्त राष्ट्र संघस्य मानव अधिकार परिषदः 61वें सत्रे सत्रं सम्बोधयन् बीएनएम अध्यक्षेण नसीम बलोच इत्यनेन पाकिस्तानस्य अधिकारिणामुपरि सम्पूर्णे बलूचिस्ताने न्यायेतर हत्याः, बलात् अन्तर्धानं, यातना इत्यादीनां गभीर मानवाधिकार उल्लङ्घनानां आरोपः आरोपितम्। अद्य अशेषे हि देशे सहर्षं सश्रद्धं च रामनवमी समाचर्यमाणा अस्ति। अयमुत्सवः भगवतः विष्णोः सप्तमावतारस्य रामस्यावतरणस्य प्रतीकमस्ति। रामनवमी चैत्रमासस्य 9वें दिने आचर्यते। सर्वत्रैव तावत् श्रद्धातिरेकः अनुभूयमानः। अवसरेस्मिन् राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः च सर्वेभ्यः देशवासिभ्यः शुभकामनाः ख्यापितवन्तौ। प्रधानमन्त्रिणा नरेन्द्रमोदिना रामनवमीपर्वणावसरे प्रजाभ्यः शुभकामनाः प्रकटिताः। इति वार्ताः।